एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। गृहमन्त्रिणः सुदन गुरुङ इत्यस्य नैरन्तर्यस्य प्रयासस्य पश्चात् तराई मधेस क्षेत्रे जनजीवनम् सामान्यम् जायमानम् वर्तते। अत्रान्तरे तराई मधेस क्षेत्रस्य विभिन्नेषु जनपदेषु स्थानीय प्रशासनैः क्रियान्विताः पूर्ण निषेधाज्ञाश्च निरस्तीक्रियमाणाः वर्तन्ते। सिराहा जनपदस्य गोलबजार क्षेत्रे क्रियान्विता कर्फ्यू नाम्नी पूर्ण निषेधाज्ञा निरस्तीकृता अस्ति। सिराहा जनपद प्रशासन कार्यालयेन ह्य सूचनां प्रकाश्य स्थानीय सुरक्षाया अवस्थां विश्लिष्य गोलबजार नगरपालिकाया अभ्यन्तरे क्रियान्विता कर्फ्यू नाम्नी पूर्ण निषेधाज्ञा ह्य सायं सप्तवादनात् निरस्तीकृता अस्ति इति सूचितं वर्तते। गोलबजार क्षेत्रे पश्चात्तन दिवसेषु उत्पन्न सुरक्षा समाह्वयं विचार्य प्रशासनेन निषेधाज्ञादेश क्रियान्वित आसीत्। सुरक्षावस्थाया सामान्य स्थितौ प्राप्तेः निष्कर्षस्य पश्चात् निषेधाज्ञायाः निरसनाय निर्णीतमस्ति इति स्थानीय प्रशासनेन ज्ञापितं वर्तते। एवमेव सप्तरी जनपद प्रशासन कार्यालयेन राजविराज नगरपालिकायां बोदे बर साइन नगरपालिकायां च क्रियान्विताम् कर्फ्यू नाम्नीम् पूर्ण निषेधाज्ञाम् निरस्य निषेधाज्ञा क्रियान्विता वर्तते। प्रमुख जनपदाधिकारिणा श्याम कृष्ण थापा विधेन प्रकाशिताया सूचनाया अनुसारेण जनपद सुरक्षा समितेः ह्यस्तनोपवेशेन अनयो स्थानयोः निषेधाज्ञादेशाय नैरन्तर्यं प्रदातुं निर्णीतं वर्तते। निषेधाज्ञायाः समये पञ्चतः अधिकानां जनानाम् एकीभवनं सभा प्रदर्शनादीनां करणं च निषिद्धे भवतः। धनुषा जनपद प्रशासनेन जनकपुर धामोपमहानगरपालिकायाः अभ्यन्तरे क्रियान्विताम् निषेधाज्ञाम् अद्यतः निरस्तीकर्तुम् निर्णीतम् वर्तते। प्रमुख जनपदाधिकारिणा प्रेम प्रसाद लुइन्टेल इत्यनेन प्रकाशितायाः सूचनायाः अनुसारेण अद्य सोमवासरे प्रातः पञ्चवादनात् निषेधाज्ञाम् पूर्णतः निरस्तीकर्तुम् निर्णीतम् अस्ति। स्थानीय प्रशासनेन षोडश दिवसस्य प्रातः दशवादनात् स्थानीय प्रशासनाधिनियमस्य अनुसारेण निषेधाज्ञा क्रियान्विता आसीत्। पूर्वराष्ट्रपतिः विद्यादेवी भण्डारी कथयति लोकतान्त्रिक मूल्यमान्यते नैतिकतां सुशासनं जनोत्तरदायित्वं च सुदृढानि विधातुम् अग्रज राजनीतिक व्यक्तीनाम् आदर्शस्य आत्मसात्करणस्य आवश्यकता वर्तते। तुलसीलाल अमात्यस्य एकोनत्रिंशत् स्मृतिदिवसस्य अवसरे तुलसीलाल स्मृति प्रतिष्ठानेन पूर्वे द्युः ललितपुरस्य च्यासल स्थाने आयोजिते कार्यक्रमे पूर्वराष्ट्रपतिः भण्डारी नेतुः अमात्यस्य त्यागः उत्तरदायिता जनसेवायाः निदर्शनं च भाविसन्तत्यै प्रेरणायाः श्रोतांसि भविष्यन्तीति विश्वासं व्यक्तवती। तदवसरे पूर्वराष्ट्रपतिः भण्डारी देशस्य वर्तमानस्थितिं प्रति चिन्तां प्रकटयन्ति नेपालः बहुजातीय बहुभाषिक बहुधार्मिक बहुसांस्कृतिकश्च विशेषतायुक्तः देशोऽस्तीत्यतः विविधतायाः मध्ये एकतां पारस्परिक सम्मानं सहिष्णुतां सामाजिक सद्भावं च रक्षितुं सर्वैः संयमतायाः अवलम्बनस्य आवश्यकता अस्ति इति बलं दत्तवती। नेपाली कांग्रेस दलेन अस्यैव श्रावण मासस्य चतुर्विंशाय दिवसाय केन्द्रीय कार्यसमिते उपवेशः आहूतोऽस्ति। अस्यैव श्रावण मासस्य चतुर्विंशे दिवसे रविवासरे दिवा एकवादनाय ललितपुरवर्तिनी दल केन्द्रीय कार्यालये केन्द्रीय कार्यसमितेः उपवेशः आहूतोऽस्तीति कार्यवाहक मुख्य सचिवेन कृष्ण प्रसाद दुलालेन ह्यः प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। वाणिज्यापूर्ति उपभोक्तृ संरक्षण विभागेन शतादपि अधिक संख्यायां शंकास्पद कृत्रिमोत्पादनानि निगृहीतानि वर्तन्ते। विभागस्य अनुगमन समूहेन अनलाइन प्रणाल्या माध्यमेन सामाजिक सञ्जालस्य माध्यमेन च विक्रय वितरणं विधीयमानानि तैलं श्याम्पू इति स्नानसाधनं चायपदार्थ खाद्यपूरकाहाराणि चेति दैनिकोपभोग्य वस्तूनि नियन्त्रितानि वर्तन्ते। एतानि उत्पादनानि गुणस्तरयुतानि उपभोग्यानि च वा सन्ति न वेति परीक्षणं जायमानमस्तीति विभागेन ज्ञापितं वर्तते। उपभोक्तृणां स्वास्थ्यम् अधिकारांच सुनिश्चेतुम क्रियाशीलता स्थिति ज्ञापयन् विभागस्य महानिर्देशक मोतीराम सापकोटा कृत्रिमोत्पादनानां विक्रय वितरणे रोद्धुम् आपणानुगमनस्य कार्याय तीव्रता प्रदत्ता स्थिति समस्पष्टयत्। गत वैशाख मासात् अधुनावधि विपज्जन्य घटनासु निपत्य 97.1% जना मृता सन्तीति राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन ज्ञापितं वर्तते। राष्ट्रिय विपद न्यूनीकरण व्यवस्थापन प्राधिकरणस्य तथ्याङ्कानाम् अनुसारेण वैशाख मासस्य प्रथम दिवसात् श्रावण मासस्य सप्तदशम दिवसं यावत् देशस्य विभिन्नेषु भागेषु 4,353 विपज्जन्य घटना सम्भूता सन्ति। घटनासु 97.1% जना मृता चत्वारो जना विलुप्ता 1,100 अष्टादश जना आहताश्च वर्तन्ते इति प्राधिकरणेन ज्ञापितमस्ति। इति समाचाराः।